पतितमासरं हिमजलैः स्नानं च दिव्याम्बरम् रत्नविभूषितं मृगमदा मोदाङ्कितं चन्दनं जातिः चम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देवदयाने पशुपते कल्पितं गृह्यता सौवर्णेन नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् नामयुतं जलं रुचिकरम् कर्पूरखण्डोज्ज्वलम् ताम्बूलं मनसा मया विरचितम् भक्त्या प्रभो स्वीकुरु छत्रं चामरयोर्युगं व्यजन चादर्शकं निर्मलं वीणाभेरिमृतङ्गकाहलकरा गीतं च नृत्यं तथा साष्टाङ्गं प्रणतिस्तुतिर्बहुविधा हे तत्समस्तं मया कल्पेन समर्पितं तव विधो पूजागृहाण प्रभो त्वं गिरिजामधिः सहचरा प्राणशरीरं गृहं पूजा समाधिस्थितिः सञ्चारः पदयोप्रदक्षिणविधिः स्तोत्राणि श्रुत्वा गिरो यद्यत् कर्म करोमि तद्गदखिलम् शम्भो श्रवणनयन जम वा मानसं वापराधम् विदितं विदितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो जय जय करुणाब्धे श्री महादेव शम्भो।